सर्वेभ्यो नमस्कारः. स्पोकन् संस्कृत इति वर्गस्य आरम्भः इदानीं कुर्मः. गतसप्ताहे वयं किं कृतवन्तः, गीतासोपाने आत्मनेपदी धातूनां किञ्चित् परिचयः अभवत् लट्लकारे. तत्र भ्रातृमेलनम् इति कथा किञ्चित् पठितवन्तः. तत्र धातूनां किञ्चित् वदामि, तदनन्तरं यत् गृहपाठः आसीत् तद् अपि कृत्वा अग्रे कथां पठामः. तत्र धातूनां विषये परस्मैधातु अपि आत्मनेपदी धातु इति द्विविधम् अस्ति अथवा त्रिविधम् अपि अस्ति इति वक्तुं शक्नुमः. परस्मै आत्मनेपदी अपि उभयपदी धातुन् इति वक्तुं शक्नुमः. तत्र पठति इति तद् परस्मै धातु, परस्मैक्रियापदं, तत्तु दृष्टवन्तः, अनेकवारं दृष्टवन्तः. अस्यां कथायां, भ्रातृमेलनम् इति कथायाम् आत्मनेपदी धातूनां परिचयः भवति. तत्र अन्ते ति इति न भवति, पठति इति अन्ते ति भवति, किन्तु अत्र ते इति भवति. मोदते, रमन्ते, ईक्षते, जानीते इति तादृशः अस्ति. एकः प्रश्नः सर्वे प्रष्टुं शक्नुवन्ति, तदस्ति अत्र अर्थभेदः अस्ति वा, किमर्थम् अत्र परस्मैपदी धातु अपि आत्मनेपदी धातु इति स्वीकृतः अस्ति इति. अतः एकम् उदाहरणम् अहं वदामि. तत्र अरुन्धति पाकं पचति, अपि अरुन्धति पाकं पचते इति वाक्यद्वयं स्वीकुर्मः. तत्र अरुन्धति पाकं पचति, तत्र कोऽपि वदति वा तत्र क्रियापदं किमस्ति, कर्तृपदं किमस्ति, कर्मपदं किम् अस्ति इति पश्यामः. पचति इति क्रियापदम्, अपि कर्तृपदं किमस्ति, अरुन्धति पाकं
पचति, कर्तृपदम्
अरुन्धति, अरुन्धति इति कर्तृपदं. कर्मपदमस्ति वा अत्र, पाकम् इति कर्मपदं. आङ्ग्लभाषायां यत् वदामः सब्जेक्ट् वर्ब् आब्जेक्ट् इति, तदेव अस्ति. कर्तृपदं, कर्मपदं, क्रियापदम्. अरुन्धति पाकं पचति, अपि तत्र अरुन्धति पाकं पचति इति सर्वे अवगच्छन्ति खलु. अरुन्धति पाकं पचति, कोऽपि प्रश्नः अस्ति वा, कोऽपि न अवगच्छति वा अरुन्धति पाकं पचति इति? सर्वे अवगच्छन्ति, अस्तु समीचीनम्. इदानीम् अन्यत् वाक्यं वदामि. अरुन्धति पाकं पचते, तत्र क्रियापदं किम् अस्ति,
पचते,
पचते इति अस्ति. कर्तृपदं किम् अस्ति,
अरुन्धति,
अरुन्धति, अरुन्धति एव. कर्मपदं
पाकं,
पाकं, पाकम्, अस्तु. अरुन्धति पाकं पचति, अरुन्धति पाकं पचते, भेदः कः अत्र, समानार्थकशब्दः वा, पचति इति क्रियापदमस्ति अथवा पचते इति क्रियापदमस्ति, तत्र कोऽपि भेदः अस्ति वा इति यदि प्रश्नं कुर्मः, उत्तरम् एतदस्ति. कोऽपि जानाति वा भेदः कः इति?
आत्मनेपदी अरुन्धति पाकं स्वत कृते पचति, पचति, पचते, किन्तु अरुन्धति पाकं पचति अन्यान् कृते.
एतदेव अस्ति. एकनिमिषः, तदेव अहं यत् सरलभगिनी उक्तवती, तदेव अहं किञ्चित् पुनरेकवारं वदामि. अरुन्धति पाकं पचति इत्युक्ते अरुन्धति पुत्राय पाकं पचति. अरुन्धत्याः पुत्रः अस्ति इति चिन्तयतु. गोविन्दः इति पुत्रः अरुन्धत्याः, अरुन्धति गोविन्दाय पाकं पचति. गोविन्दः किमपि ददातु माता इति पृच्छति चेत् अरुन्धति गोविन्दाय पाकं पचति. किन्तु यदि सा किञ्चित् खादितुम् इच्छति चेत् अरुन्धति पाकं पचते. अन्याय न अन्य अन्यजन कोऽपि अस्ति तस्मै न, किन्तु सा खादितुम् इच्छति अतः सा एव अरुन्धति पाकं पचते इत्युक्ते अन्य कोऽपि आङ्ग्लभाषायां वदामि इट्स् नाट् फार् सम्बडि एल्स् इट्स् फार् हर्सेल्फ् अरुन्धति पाकं पचते तत्र इट्स् फार् हर्सेल्फ् अरुन्धति पाकं पचति इत्युक्ते इट्स् फार् सम्बडि एल्स् अतः पचति इति परस्मै धातु इति वदामः पचति परस्मै इत्युक्ते तस्मै परस्मै फार् सम्बडि एल्स् आत्मनेपदि धातु फार् सेल्फ् इति अर्थे अस्ति किन्तु तादृशः भेदः सर्वत्र नास्ति अत्र पचति पचते आत्मनेपदिधातूनाम् आत्मनेपदिधातु अपि परस्मैपदिधातु तयोः मध्ये भेदः स्पष्टतया वयं द्रष्टुं शक्नुमः किन्तु अन्यत्र कुरुते अथवा वन्दते तत्र एतादृशः भेदः नास्ति किन्तु किमर्थं परस्मै किमर्थम् आत्मनि इत्युक्ते किञ्चित् एतादृशः भेदः अस्ति अतः आत्मनेपदिधातु अपि परस्मैपदिधातु इति वदामः अग्रे गत्वा आत्मनेपदिधातूनां प्रयोगः कर्मणि प्रयोगे अथवा भावे प्रयोगे तत्र सर्वत्र आत्मनेपदिधातूनाम् एव प्रयोगः भवति तत् अग्रे गत्वा पश्यामः किन्तु किञ्चित् वक्तुम् इष्टवान् पचति पचते पचति परस्मैपदिधातु पचते आत्मनिपदिधातु तत्र अर्थभेदः अस्ति इति तत् मनसि स्थापयन्तु तावदेव अस्तु
महोदय कृपया पुनः वदतु भेदः अस्ति अत्र पचते वा
पचते इत्युक्ते शी इस् कुकिङ्ग् फार् हर्सेल्फ् पचति इत्युक्ते फार् समवन् एल्स् पठति पठति तत्र भेदः नास्ति भेदः नास्ति केचन धातूनां मध्ये एतादृशः भेदः अस्ति किन्तु सर्वत्र नास्ति अन्य उदाहरणम् अस्ति अहम् इदानीं न स्मरामि किन्तु केचन सन्ति एतादृशः भेदः यत्र तस्मिन् अस्ति किन्तु सर्वत्र एतादृशः भेदः नास्ति किन्तु एतत् पश्यामः एतत् उदाहरणं क्षम्यतां भगिनि सरला भगिनि वदतु
जानाति जानीते उभयपदी अस्ति
उभयपदी अस्ति तत्र किन्तु भेदः अस्ति इति अहं न मन्ये भगिनि
अस्तु
अस्ति जानाति जानीते तत्र अहं चिन्तयामि जानाति इव अर्थभेदः नास्ति किन्तु केचन एतत् पचति पचते अत्र स्पष्टतया भेदः अवगन्तुं शक्नुमः अत्र किन्तु सर्वत्र नास्ति इति तत्तु सत्यं कुरुते करोति अथवा पठति पठते तत्र तत्रापि भेदः नास्ति अहं पुस्तकं अस्तु पचति पचते एतत्तु अहं सम्यक्तया जानामि सन्ध्या भगिनी अन्य प्रश्नः अस्ति वा
तर्हि अत्र पचति पचते भेदः अस्ति यदि अरुन्धति पाकं पचते
इत्युक्ते पचति इत्युक्ते वयं न प्रष्टुं शक्नुमः कस्मै कस्मै पचति इति न प्रष्टुं शक्नुमः वि काण्ट् आस्क् फार् हू इस् शी कुकिङ्ग् इफ् द सेण्टेन्सेस् अरुन्धति पाकं पचते वयं न प्रष्टुं शक्नुमः कस्मै पचति अथवा कस्मै पचते इति तद् तादृशः प्रश्नः न भवति किन्तु यदि वाक्यमस्ति अरुन्धति पाकं पचति वयं प्रष्टुं शक्नुमः कस्मै पचति भगिनी इति.
किमर्थं प्रश्नं
तदेव अस्ति अर्थभेदः. पचति इत्युक्ते आत्मनिपदि धातु, अत्र आत्मनिपदि धातुरूपम् अस्ति फार् हर्सेल्फ् इति.
अस्तु,
पचति इति अस्ति चेत् इट् इस् फार् हर्सेल्फ्. पचति इति अस्ति चेत् इट् कुड् बि फार् हर्सेल्फ् बट् इट्स् यूजुलि फार् सम्बडि एल्स् इति.
ओ अस्तु, तर्हि भेदः अस्ति अत्र.
अत्र भेदः अस्ति किन्तु अन्यत्र अस्ति इति न वक्तुं शक्नुमः. भवति न भवति, अतः एतद् उदाहरणम् अहं स्वीकृतवान् यतः अत्र भेदः स्पष्टतया द्रष्टुं शक्नुमः, अवगन्तुं शक्नुमः च. अतः आत्मनेपदीधातूनां परस्मैपदीधातूनां रूपं रूपस्य भेदः अस्ति, तदेव अहं वक्तुम् इष्टवान्. अस्तु, कोऽपि अन्यस्य प्रश्नः अस्ति वा अत्र एतस्मिन् विषये, अस्मिन् विषये? अस्तु अस्तु, अतः किञ्चित् गृहपाठः कुर्मः, तदनन्तरं कथां पठामः. अस्तु, भानु भगिनी, भवती तत्र नवम अभ्यासः करोति वा?
नमस्ते.
आं महोदय. आवरणात् उचितं रूपं चित्वा रिक्तस्थानि पूरयत. भवन्तौ विषयं जानीतः. ग्राहकौ वस्तु क्रीणीतः.
यदि तत्र ग्राहकाः आसीत् चेत्
ग्राहकाः वस्तु ग्राहकौ द्विवचनं ग्राहकाः अस्ति चेत्
यत् भवती उक्तवती तत्तु समीचीनं. ग्राहकौ वस्तु क्रीणीतः, ग्राहकाः आसीत् चेत्
ग्राहकाः वस्तु क्रीणन्ति.
हा तदेव समीचीनं भगिनि, धन्यवादः धन्यवादः. अपि नरेश महोदय अग्रिमं करोति वा?
आम्, सैनिकौ परं गृह्णीतः.
हा,
भवन्तौ जपं कुरुतः.
कुरुतः, अस्तु. हा अग्रिमं.
भगिन्यौ गीतां शृणुतः.
शृणुतः शृणुतः
शृणुतः
हा समीचीनं महोदय. हरि महोदय अग्रे.
आं महोदय, भवत्यौ सर्वत्र गन्तुं शक्नुतः.
हा तत्र बहुवचने किं भवति तत्र?
शक्नुवन्ति.
हा किन्तु पूर्णवाक्यं?
भवत्याः सर्वत्र गन्तुं शक्नुवन्ति.
तत्र भवती भवत्यौ बहुवचने?
भवती भवत्यौ
नदी भवत्यौ भवत्यः भवत्यः
भवत्यः.
हा इदानीं वाक्यं.
भवत्यः सर्वत्र गन्तुं शक्नुवन्ति.
हा समीचीनं महोदय. हा अग्रिमं.
भक्तौ पुष्पं चिनुतः.
हा बहुवचने?
भक्ताः पुष्पं चिन्वन्ति.
हा समीचीनं महोदय. हा सन्ध्या भगिनी अग्रे.
आम् धीरौ न रुदितः.
हा बहुवचने
धीरवः वा
धीरः तत्र रामः शब्दवत्
ओ सम्यक् धीरः न
अतः बहुवचने बहुवचने
रुदन्ति.
हा किन्तु धीरः रामशब्दवत् भगिनि अतः बहुवचने हा
धीरः वा रामः रामः ओ रामः
अतः रामः रुदन्ति समीचीनमस्ति. हा धीराः
ओ अल्प
अल्प दीर्घ दीर्घस्वरं शुस्व नास्ति दीर्घं भवति तत्र धीराः अकारः दीर्घः अस्ति धीराः न
रुदन्ति
क्रियापद रुदन्ति समीचीनं भगिनि. हा अग्रे
ऋषि मोक्षं प्राप्नुतः.
प्राप्नुतः किमर्थं ऋषि वचनं पदस्य वचनं किं
ऋषि ऋषि मुनिशब्दः वा.
हा मुनि हरिशब्दः
मुनिनः
न न न हरि हरि हरिः हरि हरयः
हरि हरि हरि
हरिः हरिः हरि हरयः. तत्र दीर्घ इकारः अस्ति अतः दीर्घ इकारः अस्ति अतः द्विवचनं.
तर्हि ऋषयः मोक्षं प्राप्नुवन्ति.
हा समीचीनं भगिनि अस्तु. हा अन्य दशममपि करोतु. हा
बालिके फलं दत्तः.
हा समीचीनं. हा बालिका बालिके बालिकाः
बालिकाः ददन्ति.
न न न बालिकाः फलं
फलं ददाति वा
ददाति एकवचने अस्ति. बालिका
बहुवचने नास्ति अत्र
बहुवचनमस्ति ददति इति अस्ति.
ओ ददन्ति नास्ति वा.
न न न विशेषक्रियापदम् अस्ति अतः ददति इति भवति तत्र.
अस्तु
तत्र किञ्चित् भेदः अस्ति. हा साधारणक्रियापद तादृशं नास्ति किन्तु ददति इति भवति. ददाति इति एकवचने दत्तः ददति इति बहुवचने.
अस्तु
अस्तु हा अस्तु अत्र अग्रिम अभ्यासः अपि अस्ति तत्र एतदपि कुर्मः. गीता भगिनी भवती अथवा सरला भगिनी सरला भगिनी करोति वा तत्र दशम अभ्यासः.
महोदय यथोदाहरणं रिक्तस्थानानि पूरयत. ग्राहकः वस्तूनि क्रीणाति. ग्राहकौ वस्तूनि क्रीणीतः. ग्राहका वस्तूनि क्रीणन्ति. मुनि अग्नौ जुहोति. मुनि अग्नौ जुहुतः. मुनयः अग्नौ जुहन्ति.
समीचीनं भगिनि. अग्रिमं
भक्त यज्ञं करोति. भक्तौ यज्ञं कुरुतः. भक्ताः यज्ञं कुर्वन्ति.
समीचीनं भगिनि धन्यवादः. गीता भगिनि अग्रे
एव प्रश्नः अस्ति महोदय. जुहोति बहुवचनं जुह्वन्ति
महोदय कः पृष्टवान्
महोदय पुस्तके सोपानमध्ये होतारः जुह्वति इति लिखितमस्ति. जुह्वति जुह्वति इति
जुह्वति
इति वकार अस्ति.
बकार तु अस्ति जुह्वति इति जुह्वति
बहुवचन जुह्वति एव जुह्वति एव जुह्वन्ति वा जुह्वन्ति वा जुह्वति अच्छा अत्र नकार नास्ति मुद्रणदोष इति मन्ये
जुह्वन्ति
पेज् 39
क्षम्यतां
जुह्वतः जुह्वति
जुह्वति जुह्वति हा 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 क्षम्यतां मम एव दोषः जुह्वति एकनिमिषः पश्यामि तत्र जुहोति इति तत् तस्य गणः किमस्ति इति तत् शृणोति एकनिमिषं महोदय अन्यत्र
ददाति
द्रष्टव्यमस्ति महोदय अस्तु एकवारं भवानेव दृष्ट्वा वदतु किम् अस्ति इति तत्र कस्मिन् गणे अस्ति एतत् ज्योत्यादिगणे तत्र लट्लकारे आमामां नकारः नास्ति अतः यत् दत्तमस्ति तदेव सत्यमस्ति नकारः नास्ति तत्र जुहोति एव जुह्वति इति बहुवचने तृतीयगणः अस्ति तत्र यादृशः ददाति दत्तः ददति अस्ति तादृशः एव जुहोति जुहुतः जुह्वति इति अस्ति जुह्वति एव सत्यमस्ति तत्र तृतीयगणः अस्ति जुहोत्यादि इति धन्यवादः अग्रे गीता भगिनी पठति वा
मा वाट् इस् दट् भक्तः यज्ञं मुनिः अम्बौ जुहोति ऐ थिङ्क् दट् इस् ओवर् भक्तः यज्ञम् अपि ओके नेक्स्ट् वन् इस्
सरला भगिनी उक्तवती वा भक्तः यज्ञं करोति इति
आमां
अतः तृतीयं तृतीयं
युद्ध योधौ चापं चिनुतः योधाः बहुवचनं योधाः चापं चिन्वन्ति
योद्धारः
योद्धारः
तत्र हलन्तशब्दः न कृतवान् महोदय अत्र किन्तु तत् अत्र तत्तु समीचीनं नास्ति खलु एतावत् वयं हलन्तशब्द तस्य रूपं न दृष्टवन्तः तत् इदानीं त्यजामः अग्रे तत् अग्रिमं करोतु भगिनि माता इति यत् अस्ति
योधः इस् दि एकवचनं योधः
योधः योधः प्रायशः योधः वा
योधः चापं योधः चापं चिनोति योधौ चापं चिनुतः योधाः चापं चिन्वन्ति
इति अत्र स्वीकुर्मः किमर्थं चेत् वयं हलन्तशब्दः न कृतवन्तः एतावता अतः तद् इति चिन्तयित्वा अग्रे गच्छामः अस्तु अथवा एतादृश ऋकारन्तः अस्तु अत्र त्यजामः भगिनि अग्रिमं करोतु
माता भोजनं ददाति मातरौ मातरौ
माता
मात
माता किमस्ति माता
माता भोजनं ददाति मातरौ मातरौ भोजनं ददतः and then मातरः भोजनं ददति
तत्र द्विवचने किम् अस्ति
ददतः
न न दत्तः
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 दत्तः ददति ओके दत्तः ओके माता भोजनं ददाति मातरौ भोजनं दत्तः देन् मातरः भोजनं ददति सेनापतयः पुरस्कारं प्राप्नुवन्ति सेनापति पुरस्कारं प्राप्नोति सेनापतिः पुरस्कारं प्राप्नोति सेनापती पुरस्कारं प्राप्नुतः सेनापतयः पुरस्कारं प्राप्नुवन्ति
समीचीनं भगिनि अस्तु अग्रे कः पठति हरिमहोदय पठति वा
दातारः दातुं शक्नोति दातारौ दातुं शक्नुतः दातारः दातुं शक्नुवन्ति
प्रथमविभक्ति दाता भवति महोदय दातृपातिपदिकं
ऋकारान्तशब्दः शक्नोति दातारौ दातुं शक्नुतः दाताराः
भ्रातरः अतः दातारः
दातारः
दातारः क्षम्यतां दातरः दाता दातरौ दातरः
दातरः दाता दातरौ दाता दातारौ
महोदय
दातारौ इति क्षम्यतां
दातारः इति अस्ति महोदय थर्ड् टैम्
दातारः क्षम्यतां दातारः
दातारः
सम्बन्ध अस्ति तु एक अकारः
सत्यं
दातारः एकवचनं
सत्यं
दातारः
यत् शरणभगिनी उक्तवती शरणभगिनी यत् उक्तवती तदेव एकवारम् अहमपि वदामि तत्र भ्राता पिता माता इति अस्ति चेत् बहुवचने शुस्वकारः भवति भ्रातरः पितरः मातरः इति किन्तु कर्ता अथवा धाता तादृशपदम् अस्ति चेत् तत्र सम्बन्धः नास्ति इति अत्र भेदः भवति कर्तारः इति भवति अत्रापि धातारः एव सम्यक् अस्ति तदेव उक्तवती
रमाशब्दः वा
न न कर्ताशब्दवत् इति कर्ता शब्दवत् इति चिन्तयतु
दातारः दातारौ दातारः
दाता दाता दातारौ दातारः इति
दातारौ
हा हरिमहोदय पेज् 13 मध्ये यत् ऋकारान्तपुल्लिङ्गशब्दः अस्ति
आम्
भ्राता भ्रातरौ भ्रातरः
हा
महोदय पार्श्वे
कर्ता इति समीचीनमस्ति भगिनि.
सप्त नवति एकशततमे पुटे सर्वे विभक्त्या दत्तमस्ति. 197 पेज् तत्र पश्यतु.
दातारः दातुं शक्नुवन्ति.
समीचीनं महोदय. अस्तु भानु भगिनी अग्रे.
अहं वदामि महोदय.
भगिनी क्षम्यतां भवत्याः नाम अत्र न दृष्टवान्. वदतु भगिनि.
नो प्राब्लम् महोदय. कार्यकर्ता कार्यं जानाति. कार्यकर्तारौ कार्यं जानुतः
जानीतः
कार्यकर्तारः कार्यं जानन्ति.
हा पेज् 39 मध्ये तद् रूपं दत्तमस्ति. हा तदेव वयम् अत्र कुर्मः. अस्तु अग्रिमम्
अग्रिमं शिष्यः उपदेशं
शृणोति.
शिष्यः उपदेशं शृणोति. शिष्यौ उपदेशं
शृणुतः. यत् नवमम् अभ्यासे एतदेव आसीत्. पेज् 42 मध्ये यत् अभ्यासं वयं कृतवन्तः तत्रैव शृणोति
शृणुतः. शिष्यौ उपदेशं
शृणुतः.
शिष्याः उपदेशं शृण्वन्ति.
हा समीचीनं भगिनि. हा भानु भगिनी अग्रिमद्वयं करोति वा.
आं महोदय. दरिद्रः दुःखेन रोदिति. रुदितः. दरिद्रौ दुःखेन रुदितः. दरिद्राः दुःखेन रुदन्ति.
समीचीनम्.
योगिजनः इन्द्रियाणि निगृह्णाति. योगिजनौ इन्द्रियाणि निगृह्णतः.
गृह्णन्ति इति अस्ति. तदेव भवती कृतवती. भवती गृह्णीतः प्रायशः भवती न कृतवती. तत् तदनन्तरम् तत्र अस्ति.
योगिजनाः इन्द्रियाणि निगृह्णन्ति.
तत्र एतद्विषये एकं वक्तव्यमस्ति. तत्र क्रियापदं गृह्णाति इति अस्ति. गृह्णाति, गृह्णीतः, गृह्णन्ति इति. किन्तु अत्र क्रियापदं किमस्ति? निगृह्णाति इति. यदि क्रियापदस्य पूर्वम् अन्यत् किमपि अस्ति तद् उपसर्गः इति वदामः. नि अत्र उपसर्ग नि इति अस्ति. गृह्णाति, निगृह्णाति, नि उपसर्गः इति वदामः. यत्र उपसर्गः अस्ति तत्र उपसर्गं निष्कास्य तत् त्यक्त्वा यद् क्रियापदमस्ति तस्य
गृह्णाति, गृह्णीतः,
तस्य रूपं किम् अस्ति? गृह्णाति, गृह्णीतः, गृह्णन्ति. अतः निगृह्णाति तस्य रूपं किम् अस्ति निगृह्णाति निगृह्णाति निगृह्णीतः निगृह्णन्ति
निगृह्णन्ति
हा तत्र उपसर्गः अस्ति चेत् एतदेव करणीयम् अस्ति तावदेव अस्तु गृहपाठः वयं कृतवन्तः अतः इदानीं कथां किञ्चित् पठामः अस्तु
अष्टम अध्यायं
किं भगिनि
अष्टम अध्याय अपि
अष्टम अभ्यासः तद् अहं चिन्तितवान् एतत् कृतवन्तः वर्गे एव इति किन्तु यदा अहं प्रेषितवान् तस्मिन् समये अहं विस्मृतवान् एतत् कृतम् इति किन्तु तत् कृतवन्तः वयं न कृतवन्तः वा
न महोदय अष्टमाध्यायाः अभ्यासः ददाति
न कृतवन्तः वा
न महोदय
गृहपाठरूपेण अहं कृतवन्तः
रघुपतिमहोदय वा भवान् वदति वा अस्तु वदतु
गृहपाठरूपेण वयं कृतवन्तः
अस्तु अस्तु भवान् वदतु महोदय तत्र अस्तु
हा हा एकनिमिषं मुनिः सारथिः एकनिमिषं महोदय गीता सारथिः सारथिः अश्वान् बध्नाति सारथयः अश्वान् बध्नन्ति कातरः योद्धुं न शक्नोति कातराः योद्धुं न शक्नुवन्ति अत्र कातर इत्युक्ते का महोदय मुनिः मनः निगृह्णाति मुनयः मनः निगृह्णन्ति
समीचीनं
योगिजनः ब्रह्माग्नौ जुहोति योगिजनः ब्रह्माग्नौ जुह्वति ब्रह्माग्नौ जुह्वति
जुह्वति समीचीनं नरेश् महोदय
मानवः सिद्धिम् आप्नोति मानवाः सिद्धिम् आप्नुवन्ति नेता आह्वानं शृणोति नेतरः आह्वानं शृण्वन्ति
देवः
नेतारः आह्वानं
शृण्वन्ति
देवः वरं ददाति देवाः वरं ददति गुरुः ध्यानं करोति गुरवः ध्यानं कुर्वन्ति स्वधर्मकर्ता किल्बिषं न आप्नोति कर्तारः किल्बिषं न आप्नुवन्ति योद्धा शस्त्रं चिनोति योद्धारः शस्त्रं चिन्वन्ति
अस्तु महोदय,
किल्बिषम् इत्युक्ते का किं?
हा, किल्बिषम् इत्युक्ते सिन् इति.
सिन्, ओके ओके,
धन्यवादः महोदय. एकः प्रश्नः अस्ति, नेता आह्वानं शृणोति, नेता भ्राता समानार्थं वा? भ्रातरः
तत्र किम् अस्ति चेत् भगिनी, तत्र पिता माता भ्राता जा माता इति, तत्र पिता पितरौ पितरः तादृशरूपम् अस्ति, ह्रस्व अकारः अस्ति पितरः इति. किन्तु समीचीनमस्ति.
नो नो, नेतरः रैट्?
न न न, एकनिमिषः. तत्र पिता माता भ्राता जामाता, तत्र सम्बन्धः अस्ति. मम पिता मम माता इति. किन्तु अत्र कर्ता, नेता, श्रोता, वक्ता, दाता, जेता, गन्ता, हर्ता, तत्र सम्बन्धः नास्ति. तत्र रूपं भवति कर्ता, कर्तारौ, कर्तारः इति. किन्तु पिता पितरौ पितरः इति भवति. अतः
द्विवचने कर्ता हेस् द रकारं, नेता डस् नाट् हेव् रकारं. सो
सम्बन्धः ऋकारशब्दः अपि तत्र द्विविधम् अस्ति. ऋकारान्तशब्द शब्दे कर्ता इति यत्र सम्बन्धः नास्ति, अपि पिता यत्र सम्बन्धः अस्ति.
अस्तु महोदय, समीचीनं, धन्यवादः.
अस्तु, अस्तु, अतः नेतारः इति. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा अत्र? अस्तु, अतः कथां किञ्चित् पठामः.
होता इत्युक्ते कः अर्थः महोदय? होता
कुत्र कुत्र भवन्? होमम्.
होमम्.
ओ, ऐ सी, ओके.
होता, होतारः.
सो होतारः, ओके, धन्यवादः.
होमं यः करोति, यज्ञः, यज्ञं. अतः तत्र कथां किञ्चित् अग्रे पठामः. कः कः पठति तत्र? गीता भगिनी तत्र तृतीयपरिच्छेदः पठति वा? वयं प्रथममपि द्वितीयं कृतवन्तः, भीमसेनः इति तत्र आरभ्य. गीता भगिनी, गीतासोपान, गीतासोपान पुस्तके एव
भ्रातृमेलनं.
तत्कथा
भ्रातृमेलनं
तृतीयपरिच्छेदः, भीमसेनः इति.
भीमसेनः गदापाणि, गदापाणिः सन् प्रतिष्ठते. ताम् एव दिशं गत्वा, दिशं गत्वा सः गन्धमादतनपर्वते, गन्धमादतनपर्वते सर्वत्र मृगयते. सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. अग्रे गतः भीमसेनः कदलीवनम् आलोकते. तत्र हनुमान् निद्रावशगः आसीत्. सः सर्वद्वारम् आवृत्य शेते स्म. भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते. तदा हनुमान् लोचने ईक्षत् उन्मील्य स्मयते. ततः भाषते च, किमर्थं सुखसुप्तं मां प्रबोधयसि त्वं कः
किमर्थम् आगतः? एषः देवलोकस्य मार्गः वर्तते. अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते इति.
तावदेव भगिनि. अस्तु, तत्र किं किम् अस्ति इति पङ्क्तिशः पश्यामः. भीमसेनः गदापाणिः सन् प्रतिष्ठते. प्रतिष्ठते इत्युक्ते प्रस्थितवान्, स्टार्टेड् औट्, डिपार्टेड् इति. गदापाणिः सन् पाणि, पाणि इत्युक्ते किं, कोऽपि वदति वा? हस्तः. गदापाणिः, हस्ते गदा अस्ति इति कृत्वा भीमसेनः गदापाणिः सन् तत् भूत्वा प्रतिष्ठते, प्रस्थितवान्. ताम् एव दिशं गत्वा, यत्र वा सः पुष्पं दृष्टवान् तामेव दिशं गत्वा सः गन्धमादनपर्वते सर्वत्र मृगयते. मृगति, मृगयते इति इत्युक्ते अन्वेषणं कृतवान्, पुष्पं कुत्र अस्ति, एतत् सौगन्धिकं कमलं पुष्पं कुत्र अस्ति इति सः अन्वेषणं कृतवान्. मृगयते इत्युक्ते सर्च्. सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. निरीक्षन्ते इत्युक्ते दे लुक्. हा, वित् क्यूरियोसिटि. सः अत्र किं करोति इति
सर्वत्र निरीक्षन्ते. बहुवचनं किल निरीक्षन्ते.
प्राणिनः, 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 प्राणिनः बहुवचने अस्ति. सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते.
अग्रे
गतः, अस्तु, अग्रे गतः भीमसेनः कदलीवनम् आलोकते. सः पश्यति कदलीवनम् अस्ति इति सः पश्यति अग्रे गत्वा. तत्र हनुमान् निद्रावशगः आसीत्. निद्रावशः इति जानीमः, सः निद्रां करोति. निद्रावशगः, तत्र ग इत्युक्ते गम् धातु अस्ति. सः निद्रावशं गतवान्, गतवान् अस्ति सः. निद्रावशगः हनुमान् तत्र अस्ति. सः स्वर्गद्वारम् आवृत्य शेते स्म. शेते इत्युक्ते सः निद्रां करोति स्म. आवृत्य इत्युक्ते आवरणं कृत्वा, एन्वलोप् इति. स्वर्गद्वारं सरौण्डेड् हिस् ब्लाकिङ्ग्. अत्र ब्लाकिङ्ग् प्रायशः अस्ति, किन्तु आवृत्य इत्युक्ते एन्वलोप् इति. सः स्वर्गद्वारम् आवृत्य शेते स्म. हा, कदलीफलम् इति. हा, कदलीवनं.
कदलीवनं इत्युक्ते
सत्यं.
धन्यवादः.
भीमसेनः तस्य समीपम्, अत्र हनुमान् इति पदम् अस्ति. हनुमान् तस्य समीपं. हनुमान् शब्दस्य षष्ठी विभक्ति कोऽपि जानाति वा?
हनुमन्तः, हनुमतः.
हनुमतः, भवान् शब्दः. भवतः नाम किम् इति पृच्छामः खलु. तादृश न हनुमतः. हनुमतः, षष्ठी, षष्ठी एव अहं पृच्छामि. हनुमान् तस्य समीपं. भीमसेनः कस्य समीपं? हनुमतः समीपम् इति. भीमसेनः हनुमतः समीपं गत्वा सिंहनादं कुरुते करोति. सिंहनादं करोति. तदा हनुमान् लोचने ईषद्. तत्र लोचने कीदृशपदमस्ति, कोऽपि वदति वा? लोचने
नेत्रे, नयने.
नेत्रे इति अस्ति. हा, तत्र नेत्रम् अस्ति वा अथवा नेत्रे एव अस्ति वा? अथवा नेत्राणि इति अस्ति वा?
द्वितीयं
लोचनं, लोचने.
वचनं
द्वितीय द्विवचन लोचने लोचनं
लोचने लोचन लोचने इति लोचने इति द्विवचनमस्ति किमर्थं लोचनद्वयम् अस्ति खलु
लोचनं लोचनं लोचने लोचनं नपुंसकलिङ्ग ओके
नपुंसकलिङ्गम् आम् आम् सत्यम् ईषद् ईषद् इत्युक्ते किञ्चित्
किञ्चित्
ईषद् इत्युक्ते किञ्चित् उन्मील्य उन्मील्य ओपन् उन्मील्य किञ्चित् उन्मील्य उद्घाट्य स्मयते हसति स्मयते ततः भाषते च तदनन्तरं सः किञ्चित्
स्मयते इत्युक्ते
स्मैल्
ओ स्मैल्
किञ्चित् किञ्चित् उन्मील्य लोचने किञ्चित् उन्मील्य स्मयते हसति ततः उक्त वदति च किमर्थं सुखसुप्तं मां प्रबोधयसि सुखसुप्तं तत्र सुप्तम् इत्युक्ते रेस्टिङ्ग् अथवा अस्लीप् सुखसुप्तम् ऐ एम् रेस्टिङ्ग् ऐ एम् हेविङ्ग् रेस्टिङ्ग् इन् सुख इन् हेपिनेस् तादृश सुप्तं मां किमर्थं प्रबोधयसि तत्र प्रबोधति इत्युक्ते अवेकन् अथवा अण्डर्स्टाण्ड् प्रबोधयसि तत्र पठति पाठयति तादृशरूपम् अस्ति अन्यान् प्रबोधयसि अहं प्रबोधामि किन्तु अहं रमेशं प्रबोधयामि इति तादृश प्रबोधयसि किमर्थं मां प्रबोधयसि त्वं कः किमर्थम् आगतः किमर्थम् अत्र आगतः एषः देवलोकस्य मार्गः वर्तते वर्तते इत्युक्ते अस्ति इति वर्तते तत्र बि अथवा अड्वान्स् अबैड् अनेकाः अर्थाः सन्ति किन्तु अत्र मार्गः दिस् इस् इति तावदेव अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते विद्यते इत्युक्ते अवैलेबल् इट्स् नाट् अवैलेबल् दर् इस् पर्मिशन् इस् नाट् गिवन् फार् ह्यूमन्स् टु एण्टर् दिस् पात् अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते अनुमतिः मनुष्याणां प्रवेशाय प्रवेशाय अनुमतिः न विद्यते इति सः उक्तवान् हनुमान्
प्रबोधयति इत्युक्ते to wake somebody up
prabodati itukte to wake to awaken I awaken itukte aham prabodami to wake somebody else prabodayati tatra prabodayasi iti asti prabodayasi
प्रथम वाक्यम् अस्ति भीमसेन गदापणिः सन् प्रतिष्ठते अत्र सन् शत्रुपर्य
शत्रुरूपं सत्यं गदापाणिः सन् एव सत्यं भगिनि तत्र एव सन् इति तत्र विभक्तिः अपि भवति तत्र बहुवचने किं भवति
सन्तः
समीचीनं सन्तः सन्तः सन्त् इति यत् वदामः सन्तु कारां सन्त सन्तः तदेव अस्ति सन्तः
किं वट्स् अत कः सन् इत्युक्ते
सन् बिकम् बिकम् इति
अस्धातु
अस्ति अस्धातु अस्ति अस्ति but sun means having become meaning having holding having held the gada in his hands he departs iti arthah tatra
maga dvivachanam kim bhavati sun
sun
sun natra dvivachane nasti sun iti ekavachane eva asti
atra ekavachane asti aham apakshami dvivachanam kim bhavati sun no
tatra bhavan bhavanto bhavantah santau अस्तु अस्तु अग्रिमे अपि तद् एकनिमिष पश्यामः सन्ध्या भगिनी अग्रे पठति वा तदा भीमसेन ब्रूहि
महोदय अहम् एकं प्रश्नं पृच्छामि
ईषद् अर्थं किम्
किञ्चित् इति किञ्चित् जस्ट् अ लिटल् किञ्चित् उन्मील्य उन्मील्य उद्घाट्य ओपन्
आम् महोदय
पदम् इस् ईषत् आर् ईषद् ईषत् सन्धि
I think it's probably takaranta shabdah, not dakaranta, but kintu tatra
ishat.
Tatra vikalpah asti. Tatra vikalpah asti iti manye. Ishat atva ishat vayamuti sadhu iti manye. Kintu uttama prashna bhagine am drishwa vadami.
Dhanyavad.
Sandhya bhagine kripya patata tatra. Tada bhimasenah.
तदा भीमसेनः ब्रूते अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति
तत्र पश्यन्तु भीमसेनः अहं कुन्तीपुत्रः भीमसेनः इति ब्रूते ब्रूते इत्युक्ते वदति एतेन मार्गेण गन्तुम् इच्छामि तद् सर्वे अवगच्छन्ति इति मन्ये ऐ वोण्ट् टु गो बै दिस् रोड् ऐ वोण्ट् टु गो अलाङ्ग् दिस् पात् त्वम् उत्तिष्ठ सः भवान् इति न वदति उत्तिष्ठतु भवान् उत्तिष्ठतु इति न वदति सः केवलं त्वं तत्र भवान् इत्युक्ते तत्र रेस्पेक्ट् अस्ति अत्र भीमसेन केवलं त्वम् इति वदति त्वम् उत्तिष्ठ मार्गं प्रयच्छ यदा भवान् इति आसीत् चेत् भवान् उत्तिष्ठतु मार्गं प्रयच्छतु इति भवति किन्तु सः त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति तत् लोट् लकारः अस्ति तत्र अस्तु अग्रे रमाजयन्ती भगिनी अग्रे पठति वा तत्र हनुमान् वदति इति
अस्तु महोदय हनुमान् वदति अहं व्याधिपीडितः अस्मि अतः उत्थातुं मम शक्तिः न विद्यते यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ लङ्घयित्वा गच्छ इति
तत्र हनुमान् उत्तरं ददति अहं व्याधिपीडितः अस्मि पीडितः अस्मि केन व्याधिपीडितः इति हरिणा व्याधिना व्याधिना पीडितः अस्मि अतः उत्थातुं मम शक्तिः न विद्यते विद्यते इत्युक्ते अवेलेबल् अथवा एक्सिस्ट् न इस् नाट् देर् अस्ति इति अपि अर्थः भवति शक्तिः नास्ति अत्र यदि त्वया अवश्यं गन्तव्यम् इफ् यु रियलि हेव् टु गो तर्हि मां लङ्घयित्वा गच्छ इति सो लङ्घयित्वा इत्युक्ते जम्प् ओवर् मां लङ्घयित्वा गच्छ इति हनुमान् वदति अस्तु अग्रे नरेश् महोदय वदति वा पठति वा तत्र
तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति
तत्र तदनन्तरं भीमसेनः किं वदति परमात्मा देहं व्याप्य अवतिष्ठति इति अहं जाने अहं जानामि अहं किं जानामि परमात्मा देहं व्याप्य अवतिष्ठति इति अहं जानामि इत्युक्ते किं परमात्मा देहस्य अन्ते अस्ति किन्तु देहस्य अन्ते कुत्र अस्ति देहं व्याप्य इत्युक्ते पर्मियेट् पर्वेड् देहस्य अन्ते सर्वत्र अस्ति इति अहं जानामि अवतिष्ठते अबैड् इति अथवा एक्सिस्ट् व्याप्य अवतिष्ठते इति अहं जानामि अवलङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे. अवमाननम् इत्युक्ते डिस्रेस्पेक्ट्. कर्तुं न उत्सहे, न इच्छामि इति. अन्यथा इफ् अदर्वैस् हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति. इफ् नाट् लैक् इव इत्युक्ते लैक् हनुमान् सागरम् इव त्वां, जस्ट् लैक् हनुमान् क्रास् दि ओशन् सेम् वे त्वां लङ्घयित्वा, सेम् वे ऐ वुड् क्रास् ओवर् यू एण्ड् कण्टिन्यू. गच्छेयं, गच्छेयम् इति लृङ्लकारः अस्ति, तत्र स्यात् इति तादृश प्रोबबल् इति अर्थः. गच्छेयम्, ऐ वुड् हेव् गान् इति, गच्छेयम् इति अस्ति. अस्तु, तत्र समयः जातः. अग्रिमपुटः अग्रिमवर्गे पश्यामः. तत्र एकः प्रश्नः अस्ति, तत्र अग्रिमसप्ताहे समयस्य परिवर्तनं भवति अत्र अमेरिकादेशे, तत्र परिवर्तनं कथं कुर्मः? सार्ध अष्टवादनतः सार्धनववादनपर्यन्तं कुर्मः वा, अथवा नववादनतः दशवादनपर्यन्तं कुर्मः वा?
नववादनपर्यन्तं महोदय, दशवादन विलम्बेन अस्ति.
हा अस्तु, किन्तु एतत् स्वीकुर्मः चेत् अष्टवादनतः नववादनपर्यन्तं यत् समयः अस्ति तदेव भवतु इति वा?
आं महोदय.
हा किन्तु तत् ये भारतदेशे सन्ति तेषां क्लेशः भवति. अत्र कः भारतदेशात् आगच्छति? रघुपतिमहोदय, भवान् किं चिन्तयति?
मया मम प्राब्लम् नास्ति.
कोऽपि समस्या नास्ति वा? यदि
कोऽपि समस्या नास्ति, समस्या नास्ति, नास्ति,
अस्तु. अस्तु, धन्यवादः महोदय. अतः एतदेव वयं समयः भवति अष्टवादनतः नववादनपर्यन्तं. तदेव सरला भगिनी, तदेव सम्यक् अस्ति इति भवती अपि उक्तवती खलु. अस्तु, सरला भगिनी नास्ति. हा अस्तु, अष्टवादनतः नववादनपर्यन्तं यद् अस्ति तदेव तिष्ठतु इति सर्वे अङ्गीकुर्वन्ति वा?
आम् आम् महोदय.
अस्तु अस्तु, धन्यवादः. अस्तु, अतः अस्मिन् वर्गे
एकः प्रश्नः अस्ति महोदय. जाने और एण्ड् जानामि, जानामि इत्युक्ते परस्मैपदी, जाने इत्युक्ते
समानार्थकशब्दः आत्मनेपदी अस्ति. हा हा, आत्मनेपदी अस्ति. तत्र वयं रूपम् एतावता न दृष्टवन्तः. पेज् 48 पश्यतु, तत्र तत्र रूपं दत्तमस्ति. उत्तमपुरुषे जानी इति भवति.
48 पेज्.
हा, सहते इति अस्ति प्रथमपुरुषे, किन्तु उत्तमपुरुषे सहे इति अस्ति, सकारः नास्ति.
परन्तु जानामि इत्युक्ते
जाने न जाने, तत्र आपोसिट् अस्ति, किन्तु
हिन्दीभाषायाम् एतदेव उपयुज्यते. जाने न जाने,
सत्यं सत्यं, हिन्दीभाषायां तादृशरूपम् अस्ति, किन्तु संस्कृतभाषे एतद् आत्मनिपदिरूपम् अस्ति भगिनि.
ओके, धन्यवादः.
अस्तु,
धन्यवादः.
अस्तु, हा, समयः जातः, अतः विरमामः. सर्वेभ्यः नमस्कारः.
धन्यवादः.
अग्रिमवर्गे
मिलामः.
नमस्कारः. नमस्कारः.